ओम नमो भगवते वासुदेवाय। अथ षट्त्रिंशोऽध्यायः। श्रीशुक उवाच। अथ सर्यागतो गोष्ठमरिष्टो वृषभासुरः महीं महाककुत्कायः कम्पयन् खुरवीक्षताम्। रम्भमाणः खरतरम् पदा च विलिखन् महीम्। उद्यम्य पुच्छम् वप्राणि विषाणाग्रेण चोद्धरन्। किञ्चित् किञ्चित् छगृन्मुञ्चन् मूत्रयन् स्तब्धलोचनः। यस्य निर्राजितेनाङ्क निष्ठुरेण गवाम् दृणाम्। पतन्त्यकालतो गर्भा स्रवन्ति स्म भयेन वै। निर्विशन्ति घना यस्य ककुद्यचलशङ्कया। तम् तीक्ष्णशृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्र सुः। पशवो दुद्रुवुर्भीता राजन् सन्त्यज्य गोकुलम्। कृष्णकृष्णेति ते सर्वे गोविन्दम् शरणम् ययुः। भगवानपि तद्वीक्ष्य गोकुलम् भयविद्रुतम्। मा भैष्टेति गिराश्वास्य वृषासुरमुपहव्ययत्। गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम। बलदर्पहाहम् दुष्टानाम् त्वद्विधानाम् दुरात्मनाम् इत्यास्फोट्याच्युतोरिष्टम् तलशब्देन कोपयन्। सख्युरंसे भुजा भोगम् प्रसार्यावस्थितो हरिः। सोऽप्येवम् कोऽपितोरिष्टः खुरेणावनिमुल्लिखन्। उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत्। अग्रन्यस्तविषाणाग्रह स्तब्धाश्रिक्लोचनोच्युतम्। कटाक्षिप्यात्रवत्तूर्णमिन्द्रमुक्तो सनिर्यथा। गृहीत्वा शृङ्गयोस्तम् वा अष्टादशपदानि सः। प्रत्यपो वाह भगवान् गजः प्रतिगजम् यथा। सोपविद्धो भगवता पुनरुत्थाय सत्वरः। आपतत्स्विन्न सर्वाङ्गो निःश्वसन् क्रोधमूर्च्छितः। तमापतन्तम् सनिगृह्य शृङ्गयो पदा समाक्रम्य निपात्य भूतले। निष्पीडयामास यथार्द्रमम्बरम् कृत्वा विषाणेन जघान सोपतत्। असृग्वमन्मूत्रशकृत् समुत्सृजन् क्षिपंश्च पादाननवस्थिते क्षणः। जगाम कृच्छ्रम् निर्ृते रथक्षयम् पुष्पैकिरम् तो हरिमीडिरे सुराः। एवम् ककुद्मिनम् हत्वा स्तूयमानः स्वजातिभिः। विवेशगोष्ठम् सबलो गोपीनाम् नयनोत्सवः। अरिष्टे निहते दैत्ये कृष्णेनाद्भुतकर्मणा। कंसायाथाः भगवान् नारदो देवदर्शनः। यशोदायाः सुताम् कन्याम् देवक्याः कृष्णमेव च। रामम् च रोहिणीपुत्रम् वसुदेवेन बिभ्यता। न्यस्तौ स्वमित्रे नन्दे वै याभ्याम् ते पुरुषाहताः। निशम्य तद्भोजपतिः कोपात् प्रचलितेन्द्रियः। निशातमसि मा दत्त वसुदेव जिघांसया। निवारितो नारदेन तत्सुतौ मृत्युमात्मनः। ज्ञात्वा लोहमयैः पाशैर्बभन्त सह भार्यया। प्रतियाते तु देवर्षौ कंसा भाष्यकेशिनम्। प्रेषयामास हन्येताम् भवता रामकेशवौ। ततो मुष्टिकचाणूर शलतो शलकादिकान्। अमात्यान् हस्तिपांश्चैव समाहूयाः भोजराट्। भोभो निशम्यतामेतत् वीरचाणूरमुष्टिकौ। नन्दव्रजे किला साते सुतावानकदुन्दुभेः। रामकृष्णौ ततो मह्यम् मृत्युः किल निदर्शितः। भवद्भ्यामिह सम्प्राप्तौ हन्येताम् मल्ललीलया। मञ्चाः क्रियन्ताम् विविधा मल्लरङ्गपरिश्रिताः। पौराजानपदाः सर्वे पश्यन्तु स्वैरसंयुगम्। महामात्रत्वया भद्र रङ्गद्वार्युपनीयताम्। द्विपः कुवलया पीडो जहितेन ममाहितौ। आरभ्यताम् धनुर्यागश्चतुर्दश्याम् यथाविधि। विशसन्तु पशून्मेध्यान् भूतराजाय मीढुषे। इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम्। गृहीत्वा पाणिना पाणिम् ततो क्रूरमुवाचः। भो भो दानपते मह्यम् क्रियताम् मैत्रमादृतः। नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु। अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम्। यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद्विभुः। गच्छ नन्दव्रजम् तत्र सुतावानकदुन्दुभेः। आसाते ताविहानेन रथेनानयमाचिरम्। निसृष्टः किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयैः। तावानय समम् गोपैर्नन्दाद्यैः साभ्युपायनैः। घातयिष्य इहानीतौ कालकल्पेन हस्तिना। यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमैः। तयोर्निहतयोस्तप्तान् वसुदेव पुरोगमान्। तद्बन्धोन्निहनिष्यामि वृष्णिभोजदशार्हकान् उग्रसेनम् च पितरम् स्थविरम् राज्यकामुकम् तद्भ्रातरम् देवकम् च ये चान्ये विद्विषो मम। ततश्चैषा महीमित्र भवित्री नष्टकण्टका जरासन्धो मम गुरुर्द्विविदो दयितः सखा। शम्बरो नरको बाणो मय्येव कृतसहृदाः तैरहम् सुरपक्षीयान् हत्वा भोक्ष्ये महीम् नृपान्। एतज्ज्ञात्वा नयक्षिप्रम् रामकृष्णाविहार्भकौ धनुर्मखनिरीक्षार्थम् द्रष्टुम् यदुपुरश्रियम् अक्रूरौ वाच राजन्मनीषितम् सध्यक् तव स्वावद्यमार्जनम् सिद्ध्यसिद्ध्योः समम् कुर्यात् दैवम् हि फलसाधनम्। मनोरथान् करोत्युच्चैर्जनो दैवहतानपि युज्यते हर्षशोकाभ्याम् तथाप्याज्ञाम् करोमि ते। श्रीशुक उवाच एवमादिश्य चाक्रूरम् मन्त्रिणश्च विसृज्य सः प्रविवेश गृहम् कंसस्तथा क्रूरः स्वमालयम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे क्रूरसम्प्रेषणम् नाम षट्त्रिंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।